ಕೇನಾಕ್ಷರಸವಾಂನಾಯಮಧಿಗಮ್ಯ ಮಹೇಶ್ವರಾತ್ ಕೃತ್ಸ್ನಂ ವ್ಯಾಕರಣಂ ಪ್ರೋಕ್ತಂ ತಸ್ಮೈ ಪಾಣಿನಯೇ ನಮಃ. ವಾಚ್ಯಕಾರಂ ವರರುಚಿಂ ಭಾಷ್ಯಕಾರಂ ಪತಂಜಲಿಂ ಪಾಣಿನಿಂ ಸೂತ್ರಕಾರಂ ಚ ಪ್ರಣತೋಸ್ಮಿ ಮುನಿತ್ರಯಂ ನತ್ವಾ ಸರಸ್ವತೀಂ ದೇವೀಂ ಶುದ್ಧಾಂ ಗುಣ್ಯಾಂ ಕರೋಮ್ಯಹಂ ಪಾಣಿನೀಯ ಪ್ರವೇಶಾಯ ಲಘು ಸಿದ್ಧಾಂತ ಕೌಮುದೀಂ. ಗುರುರೇವ ಗತಿಃ ಗುರುಮೇವ ಭಜೇ ಗುರುನೈವ ಸಹಾಸ್ಮಿ ನಮೋ ಗುರವೇ. ನ ಗುರುಃ ಪರಮಂ ಶಿಶುರಸ್ಮಿ ಗುರೋರ್ಮತಿರಸ್ತಿ ಗುರೋ ಮಮ ಪಾಹಿ ಗುರೋ. ಓಂ ನಮಃ ಪಾಣಿನಿ ಕಾತ್ಯಾಯನ ಪತಂಜಲಿಭ್ಯಃ ಶಬ್ದವಿದ್ಯಾ ಸಂಪ್ರದಾಯ ಪ್ರವರ್ತಕೇಭ್ಯಃ ನಮೋ ಮುನಿಭ್ಯಃ ನಮೋ ಮಹದ್ಭ್ಯಃ ನಮೋ ಗುರುಭ್ಯಃ. ಸುಜಾತ ಭಗಿನಿ ನಾಗತವತಿವ ಅಸ್ತು. ಅಸ್ಮಿನ್ ಅಸ್ಯಾಂ ಕಕ್ಷಾಯಾಂ ಅತ್ಸಂಧಿ ಪ್ರಕರಣಂ ಆರಭ್ಯತೆ. ಅಸ್ಮಾಭಿಃ ಸಂಜ್ಞಾ ಪ್ರಕರಣಂ ಸಮಾಪ್ತಂ. ಸಂಜ್ಞಾ ಪ್ರಕರಣಸ್ಯ ಗೃಹ ಕಾರ್ಯಂ ಮಯಾ ಇಮೇಲ್ ದ್ವಾರಾ ಪ್ರೇಷಿತಂ. ಕೃಪಯಾ ತತ್ ಸೆಪ್ಟೆಂಬರ್ ಮಾಸಸ್ಯ ಅಂತಿಮ ದಿನಾಂಕಾತ್ ಪೂರ್ವಂ ಕೃತ್ವಾ ಪ್ರೇಷಯಂತು. ತತ್ರ ಗೃಹ ಕಾರ್ಯಂ ಐಚ್ಛಿಕಂ ಅಸ್ತಿ ನತು ಅನಿವಾರ್ಯಂ ಅಸ್ತಿ. ಯೇ ಇಚ್ಛಂತಿ ತೈಹಿ ಕರ್ತುಂ ಶಕ್ಯತೆ. ಅತ್ರ ವ್ಯೋಮ ಸಂಸ್ಕೃತ ಪಾಠಶಾಲಾ ಇತಿ ವ್ಯಾಕರಣ ಕಕ್ಷಾಃ ಚಾಲ್ಯಂತೆ. ಲಘು ಸಿದ್ಧಾಂತ ಕೌಮುದ್ಯಾಃ ಪಾಠಾನಾಂ ಉಪಸಂಹಾರ ಸಮಯೇ ಉಪಸಂಹಾರಾನಂತರಂ ಭಗವತಃ ಕೃಪಯಾ ವಯಂ ಯದಾ ಉಪಸಂಹರಾಮಃ ತದಾ ಏಕಂ ಪ್ರಮಾಣಪತ್ರಂ ದೀಯತೆ. ವ್ಯೋಮ ಸಂಸ್ಕೃತ ಪಾಠಶಾಲಾ ದ್ವಾರಾ ಪ್ರಮಾಣಪತ್ರಮೇಕಂ ದೀಯತೆ. ತತ್ ಪ್ರಮಾಣಪತ್ರಂ ತು ಯೇ ಅತ್ರ ಅಸೈನ್ಮೆಂಟ್ ಇತ್ಯಾದಿ ಗೃಹ ಕಾರ್ಯಂ ಪರೀಕ್ಷಾಃ ಯೇ ಸ್ವೀಕುರ್ವಂತಿ ತೇಷಾಮೇವ ದೀಯತೆ ಇತಿ ಜ್ಯೇಷ್ಠೈಃ ನಿಯಮಕೃತಃ. ಅತಃ ಯೇ ತತ್ರ ಪ್ರಮಾಣಪತ್ರಂ ಇಚ್ಛಂತಿ ತೇ ಅವಶ್ಯಂ ತೈಃ ಅವಶ್ಯಂ ಗೃಹ ಕಾರ್ಯಂ ಕೃತ್ವಾ ಪ್ರೇಷಣೀಯಂ ಇತಿ ಸವಿನಯಂ ಪ್ರಾರ್ಥಯೆ. ಇದಾನೀಂ ಅಸ್ಯಾಂ ಕಕ್ಷಾಯಾಂ ಅತ್ಸಂಧಿ ಪ್ರಕರಣ ಆರಭ್ಯತೆ. ಸಂಧಿರ್ನಾಮ ಕಃ ಇತಿ ಪ್ರಶ್ನಃ ಸರ್ವೇಷಾಂ ಮನಸಿ ಉದೇತಿ. ಅತ್ರ ಸರ್ವೇ ಜಾನಂತಿ, ಪರಂತು ಮುಖ್ಯಂ ಪ್ರಶ್ನಂ ಏತದ್ ಭವತಿ ತತ್ ಪಾಣಿನಾ ಉಪಯುಕ್ತಃ ಶಬ್ದಃ ಸಂಧಿಃ ಇತಿ. ಶಬ್ದಃ ಪಾಣಿನಾ ಉಪಯುಕ್ತಃ ವಾ? ತತ್ರ ಉತ್ತರಂ ದೀಯತೆ, ಪಾಣಿನಿನ ಸಂಧಿಃ ಇತಿ ಶಬ್ದಸ್ಯ ಉಪಯೋಗಃ ನ ಕೃತಃ. ಕಿಂತು ವೈಯಾಕರಣ ಸಂಪ್ರದಾಯೇ ಸರ್ವತ್ರ ಸಂಧಿಃ ಇತಿ ಶಬ್ದಃ ಅಂಗೀಕ್ರಿಯತೆ. ಕೋ ನಾಮ ಸಂಧಿಃ? ತದಾ ಉಚ್ಯತೆ ಪರಸ್ಸನ್ನಿಕರ್ಷ ಸಂಹಿತ ಇತಿ ಸಂನ್ಯಾಸೂತ್ರಂ ಅಸ್ಮಾಭಿಃ ಅಧೀತಂ. ವರ್ಣಾನಾಂ ಅತಿಶಯಿತಃ ಸನ್ನಿಧಿಃ ಸಂಹಿತಾ ಸಂಜ್ಞಃ ಸ್ಯಾತ್ ಇತ್ಯುಕ್ತೆ ವರ್ಣಾನಾಂ ಉಚ್ಚಾರಣ ಸಮಯೇ ಅತ್ಯಂತಂ ಸಾಮೀಪ್ಯಂ ಯದ್ ಭವತಿ ಸೈವ ಸಂಜ್ಞಾ ಸೈವ ಸಂಹಿತಾ ಇತಿ ಉಚ್ಯತೆ. ವರ್ಣಾನಾಂ ಉಚ್ಚಾರಣ ಸಮಯೇ ಅತ್ಯಂತಂ ಸಾಮೀಪ್ಯಂ ಯದಾ ಭವತಿ ತದಾ ಏವ ಸಂಹಿತಾ ಇತಿ ಉಚ್ಯತೆ. ಸಾಮೀಪ್ಯಂ ನಾಮ ಅರ್ಧ ಮಾತ್ರ ಅಪೇಕ್ಷೆಯ ನ್ಯೂನಂ. ಇದಾನೀಂ ಸಂಹಿತ ಯದಾ ಭವತಿ ತದಾ ಕಿಂ ಭವತಿ ಇತಿ ಪ್ರಶ್ನಃ ಜಾಯತೆ. ತದಾ ಸಂಹಿತ ಯದಾ ಭವತಿ ತದಾ ಕಶ್ಚಿತ್ ವ್ಯತ್ಯಯಃ ಜಾಯತೆ. ఉదాహరణం లౌకిక ఉదాహరణం ఏకం పశ్యామః. ఇదానీ పాఠశాలాయాం బాలాః సంతి, అహం ఏకః బాలః, కక్షాయాం పంచాశత్ ఛాత్రాః సంతి. కక్షాయాం పంచాశత్ ఛాత్రాః సంతి. తత్ర సర్వే ఛాత్రాః మమ ప్రియ సుహృదః న. ఇత్యుక్తే మమ ద్వౌ ఏవ ప్రియ సుహృదౌ, ద్వౌ వా త్రయో వా. తత్ర చ ద్వౌ త్రయః, త్రయః ఇతి స్వీకుర్వంతు, త్రయః బాలాః మమ సుహృదః, మమ మిత్రాణి. కిమర్థం ఇత్యుక్తే మమ మనః తేషాం సత్సంగే, తేషాం సంగే మమ మనః లీనః భవతి, ఆనందం ప్రాప్నోతి. అతః తే అపి మాం సుహృదం ఇతి మన్యంతే త్రయః అపి. ఇదానీ అహం సంస్కృత ప్రియః, అన్యః బాలః ఏకః అస్తి గోపాలః ఇతి, సః తు కరాటే ప్రియః. కరాటే ఇతి తత్ర నియుద్ధ, యుద్ధ ప్రక్రియ ఏకా విద్యతే, నియుద్ధ ప్రక్రియ ఏకా విద్యతే. కరాటే ప్రియః, సః కిం కరోతి, కరాటే కోర్స్ జాయిన్ కరోతి, కరాటే మధ్య సర్వం సహ అధ్యయనం కరోతి, సహ చాంపియన్ భవతి. సహ ఆగత్య మాం వదతి, హే హే వెంకట సుబ్రహ్మణ్య, భవాన్ అపి కరాటేం కరాటే కోర్స్ జాయిన్ కరోతు, తేన మహాల్లాభ విద్యతే, తత్ర ఆత్మరక్షణం ఇత్యాదికం కర్తుం శక్యతే ఇతి సహ వదతి. అహం వదామి అస్తు ఇతి ఉక్త్వా అహం కరాటే కోర్స్ జాయిన్ కరోమి, అహమపి కరాటే కరాటే విద్యాం జానామి. అహం అన్యం మమ మిత్రం సయేవ గోపాలం ప్రతి వదామి, ప్రియమిత్ర భవాన్ భానువాసరే అస్మాకం గీతగోవింద సంస్కృత సంఘమధ్యే సంస్కృత కక్షాః చాల్యంతే, తత్ర సంస్కృత భాష అధ్యేతవ్యా ఇతి అహం తం ఉపదిశామి. సహ మమ ఉపదేశం ఉరరీకృత్య సహ అపి అహం తం వదామి, కృపయా కక్షాం ప్రతి ఆగచ్చంతు సంస్కృత కక్షాం ప్రతి. సంస్కృత భాషాధ్యయనేన తత్ర బుద్ధిః తీక్ష్ణా భవతి, అన్యేభ్యః విషయేభ్యః అన్యాసు విషయాసు అపి అధిక అంకాని ప్రాప్తుం శక్యతే సంస్కృతం అధీయతే చేత్ ఇత్యాది విషయం అహం యదా వదామి, సహ గోపాలః కిం కరోతి, అహమపి సంస్కృత కక్షాం ప్రతి ఆగచ్చామి, అవశ్యం అహం అధ్యయనం కరోమి ఇతి సహ అపి వదతి. ఏవం అస్మాకం సామీప్యం ఏకం ఆసీత్, అస్మాకం మధ్య ఇదానీం కిం అభవత్ ఇత్యుక్తే మమ సామీప్యేన సహ సంస్కృతజ్ఞః అభవత్, తస్య సామీప్యేన అహం కరాటే విద్యాం ప్రాప్తవాన్. ఇదానీం ఏవమేవ వర్ణానాం సామీప్యం యదా భవతి, ఏవం కరాటే విద్యయా అహం పూర్వం న భూషితః, అనంతరం అహం కరాటే విద్యయా భూషితః, సహ అపి సంస్కృత విద్యయా సహ పూర్వం న భూషితః, మమ సంగేన సహ సంస్కృత విద్యాం అధీతవాన్, ఏవం సహ సంస్కృతజ్ఞః అభవత్. ఇదానీం తస్య చ తస్య జీవనేపి పరివర్తనం జాతం, మమ జీవనేపి పరివర్తనం జాతం అస్మాకం సామీప్యేన సౌహార్దేన. ఏవమేవ వర్ణానామపి சர்வே வர்ணாக பரஸ்பரம் பிரிய சுஹ்ருதஹன தத்ர கதாசித் யக்கோபி வர்ணஹ அன்யம் வர்ணம் உச்சாரண சமயே சாமீப்யம் மத்வா சம்ஹிதா யதா பவதி ததா கிம் பவதி வர்ணவ்யத்யயஹ பவதி. யதா அஸ்மாகம் யதா அஸ்மின் உதாஹரணே வ்யத்யாஸஹ சஞ்சாதஹ ததா ஏவ வர்ணானாமபி வ்யத்யயஹ சம்பவதி. சயேவ வ்யத்யயஹ சந்திரித்துச்சதே வர்ணானாம் மத்யேபி சயேவ வ்யத்யயஹ சந்திரித்துச்சதே. ஏவம் உச்சாரண சமயே வர்ணானாம் அத்யந்தம் சாமீப்யம் க்ளோஸ்னஸ் ப்ராக்ஸிமிட்டி இது ஆங்கில பாஷாயம் வதந்தி சம்ஹிதா இது உச்சதே. யதா சம்ஹிதா பவதி ததா வர் க்வசித் வர்ண வ்யத்யயஹ பவதி ஸ ஸ வ்யத்யயஹ ஏவ சந்திஹி இது உச்சதே. ஏவம் பாணினினா சம்ஹிதா இது சப்தஹ ஸ்வீகிருதஹ நது சந்திஹி இது. யதா சம்ஹிதா பவதி ததா வ்யத்யயஹ பவதி. பவந்தஹ சந்திஹி வா சம்ஹிதா வா யக்யோபி வதந்து ததேவ பாணினா சயேவ அதிகாரஹ அபி ஸ்வீகிருதஹ. இதானிம் சம்ஹிதா குத்ர குத்ர பவதி குத்ர ந பவதி சம்ஹிதா குத்ர நித்யா பவதி ஐச்சிகம் பவதி வா யத்ர குத்ராபி ஐச்சிகம் பவதி வா இத்யுக்தே விகல்பஹ பவதி வா. இதானிம் ஏகா காரிகா வித்யதே பிரசித்தா காரிகா சர்வைஹி கண்டஸ்தீகரணம் கண்டஸ்தி கர்த்தவ்யம் பவதி சம்ஹிதைக பதே நித்யா நித்யா தாது உபசர்கயோஹ நித்யா சமாசே வாக்கியேது சா விவக்ஷாம் அபேக்ஷதே. சுலபம் அஸ்தி. ஏகபதே சம்ஹிதா நித்யா. ஏகபதே நாம இதானிம் ராம இதி பிராதிபதிகம் அஸ்தி பிரத்யயஹ ஆதிதி அஸ்தி தத்ர ராமாதித்யேவ பவதி தத்ர அஸ்மாபிஹி சம்ஹிதா கரணியா ஏவ சம்ஹிதா நாம வர்ண வ்யத்யயஹ அகாரஸ்ய ஆகாரஸ்ய ஸ்தானே ஆகாரஹ இதி சவர்ண தீர்கஹ நாம வர்ண வ்யத்யயஹ கரணியஹ சவர்ண தீர்க நியமேன வர்ண வ்யத்யயஹ கரணியஹ ஏவ தத்ர நித்யம் சம்ஹித ஏகபதே நித்யா ஏகபதே சதா சம்ஹிதா நித்யா பவதி. தாதுபசர்கயோஹோ சம்ஹிதா தாதுபசர்கயோஹோ அபி நித்யா பவதி. உப ஏதி உபைதி தத்ர உப ஏதி இதி பிருதக் பிரயோகஹ அஸ்மாபிஹி நைவ கர்த்தும் சக்யதே. யதா உப ஏதி இதி சப்தௌ த்வௌ பார்ஸ்வே ஏவ பவந்தி சேத் ததா உப ஏதி உபைதி இத்யேவ வக்தவ்யம் அஸ்மாபிஹி நது உப ஏதி இதி. தத்ர சம்ஹிதா நித்யா வர்த்ததே. ஏவம் சமாசேபி இதானிம் தைத்யானாம் அரிஹி இதி சமாசஹ தைத்யாரிஹி இதி சமாசஹ தைத்ய இது விக்ரஹ வாக்கியம் அஸ்தி தைத்யானாம் அரிஹி இதி. தைத்ய அரி இதி பிராதிபதிக த்வயம் அஸ்தி விபத்தி லோபஹ சஞ்சாதஹ ததா ஏதௌ பிராதி ஏதௌ ததா ஏதாப்யாம் ஏதாப்யாம் பிராதிபதிகாப்யாம் சந்திஹி கரணியஹ தைத்ய அரிஹி இத்யத்ர சவர்ண தீர்க சந்திஹி அவசியம் கரணியஹ. அத்ராபி நித்யா வர்த்ததே. இதானிம் ஏகபதே சம்ஹிதா நித்யா தாதுபசர்கயோஹோ சம்ஹிதா நித்யா சமாசே அபி நித்யா பவதி. ததா குத்ர தர்ஹி வைகல்பிகஹ வா ஐச்சிகஹ இதி ப்ரஷ்னே க்ருதே வாக்கியே து விவக்ஷாம் அபேக்ஷதே. இதானிம் வாக்கியே இதி ப்ளஸ் அபி தேன தேன ராமாயணம் இதி அபி உக்தம் इति अपि इत्यत्र पृथक्तयापि प्रयोगः कर्तुं शक्यते इत्यपि इति सन्धिं कृत्वा संहितां मनसि निधाय तत्र सन्धिनियमम् अनुसृत्य सन्धिं कृत्वापि प्रयोगः कर्तुं शक्यते। इदानीं मीनाक्षी भगिनी एकं प्रश्नं पृष्टवती, वर्णव्यत्ययः, व्यत्ययः नाम व्यत्ययः चेञ्ज् मोडिफिकेशन् आङ्ग्लभाषायाम् उच्यते चेत् परिवर्तनम्। सन्धिकार्यम्, सन्धिकार्यं नाम किम्? सन्धि वर्णव्यत्ययः भवति इति अस्माभिः उच्यते, यदा संहिता भवति तदा वर्णव्यत्ययः भवति। व्यत्ययः इत्युक्ते सन्धिकार्यं कतिविधं भवति? तदा उच्यते सन्धिकार्यं त्रिविधम्। आदेशः, आगमः, लोपः इति। इदानीम् आदेशः, शत्रुवदादेशः इति लौकिकनियमः अस्ति। इदानीम् आदेशः नाम इको एनचि आद्गुणः उदाहरणम् इति सूत्रद्वयम् आदेशस्य उदाहरणम्। अस्मिन् सूत्रे, इको एनचि इति सूत्रे, सन्धिकार्यम् आदेशरूपकार्यम्। आद्गुणः इति सूत्रे सन्धिकार्यम् आद्गुणः इति सूत्रेण सन्धिकार्यं यत्र प्रवर्तते तत्र आदेशरूपकार्यं भवति। इदानीं सुधि उपास्यः इत्यत्र ईकारस्य स्थाने यकारः, अत्र किम् अभवत् इत्युक्ते ईकारः पूर्वम् आसीत्, इदानीं यकारः आदेशः शत्रुवत् आगत्य इको यणचि इति सूत्रप्रवृत्तिः भवति तदा यकारः वदति। ईकारं दृष्ट्वा यकारः वदति सुधी इत्यत्र ईकारः अस्ति। इदानीं यकारः किं करोति? आगच्छति, यकारः आगत्य वदति इको एनर्जि इति सूत्र अनुसारेण मया अत्र भवितव्यम्, भवता अत्र न भवितव्यम् इति उक्त्वा ईकारं प्रेषयति। वस्तुतः ईकारः आगच्छति, यकारः गच्छति इत्यादिकं काल्पनिकमेव, तद् अग्रे वक्ष्यामि। ईकारः किं करोति? तदा यकारं दृष्ट्वा, ओ अस्तु, मम स्थानम् इदानीम् अत्र नास्ति, अहं अन्यत्र गच्छामि इति ईकारः गच्छति, तदा यकारः आगच्छति। एवमेव शत्रुवदादेशः इत्युक्ते ईकारस्य स्थाने यकारः आदिष्टः अभवत्। इदानीं रमा ईशः इत्यत्र आकार ईकारयोः स्थाने एकारः। इदानीम् आकार ईकारं दृष्ट्वा एकारः आगत्य वदति अत्र आद्गुणः इति सूत्रेण मया अत्र भवितव्यम्। तदा आकारः पृच्छति किं प्रमाणम्? आद्गुणः सूत्रं प्रमाणं, मया अत्र भवितव्यम्। तदा आकारः ईकारः किं करोति? आकारः बहिर्गच्छति, ईकारोऽपि बहिर्गच्छति, आकारस्य ईकारस्य स्थाने एकारः आदेशः भवति। एवम् अत्र त्रयः शब्दाः अस्माभिः गृहीतव्याः, स्थानि, आदेशः, निमित्तः, आगमः, लोपः। स्थानि इत्युक्ते ईकारः स्थानि, सुधि उपास्यः इत्यत्र ईकारः स्थानि, यकारः आदेशः, ऊ इति अच् वर्णः अस्ति निमित्तम्, तद् नियमानुसारेण भवति। अग्रे नियमान् पश्यामः. इदानीम् अत्रापि रमा ईशः इत्यत्रापि स्थानीकः आकार ईकारौ स्थानी स्थानिनौ तत्र स्थानिनौ आकार ईकारौ आकार ईकार ईकार स्थाने एकारः आदेशः भवति. एवम् आगमः इत्युक्ते मित्रवदागमः. मित्रवदागमः नाम आगमः किं करोति, आगमः एकः वर्णः इदानीं सन् प्लस् अच्युतः इति स्वीकुर्मः. तत्र सूत्रं नमो ह्रस्वाजति नमुन्नित्यं तदनन्तरं पश्यामः. सन् प्लस् अच्युतः इत्यत्र नकारस्य आगमः अस्ति. एवं सन् प्लस् अच्युतः इति स्थिते तदा किं भवति, नकारः आगत्य पूर्वस्थितनकारम् अकारं च वदति मया अपि अत्र भवितव्यम्, किं प्रमाणम् इति पूर्वनकारः पूर्वं पूर्वस्थितनकारः पूर्वस्यां दशायां स्थितनकारः पृच्छति किं प्रमाणम्. गमो ह्रस्वादचि गमुन्नित्यम् इति सूत्रं प्रमाणम्. ओ तर्हि किं करोति, अस्तु आगच्छतु इति हेण्ड्शेक् कृत्वा स्वीकरोति नकारम्. किं भवति, सन् सनच्युतः इति नकारस्य आगमः भवति. मित्रवदागमः इत्युक्ते अन्यः वर्णः तत्र आगत्य तत्रैव उपतिष्ठते. प्राङ्षष्टः इत्यत्रापि ककारागमः. एवम् अत्र आगमः आगमस्य आगमः इत्यत्र स्थानी किमपि न भवति, केवलम् आगमः पूर्वस्थितवर्णः आगमवर्णः. एवं लोपः, लोपः नाम अदर्शनं लोपः. शत्रुवदादेशः मित्रवदागमः अदर्शनं लोपः. कृपया लिखन्तु, मया अत्र स्लैड् मध्ये न लिखितम्, अहम् अनन्तरं योजयित्वा प्रेषयामि. कदाचित् विस्मर्यते, आदेशः शत्रुवदादेशः मित्रवदागमः अदर्शनं लोपः. इदानीं लोपशाकल्यस्य इति सूत्रमस्ति, तदनुसारेण हरय् येहि इत्यत्र यकारस्य लोपः. लोपः नाम अदर्शनम्, सन्धिकरणानन्तरं यकारस्य अदर्शनम्. एवं संहिता सत्याम् एतादृशव्यत्यासः वर्णेषु भवन्ति. आदेशरूपव्यत्यासः, आगमरूपव्यत्यासः, लोपरूपव्यत्यासः. एतदस्माभिः अवश्यम् अवगन्तव्यम्. पुनः वदामि, वर्णानाम् उच्चारणसमये अत्यन्तं सामीप्यं संहिता. यत्र संहिता तत्र क्वचिद् वर्णव्यत्ययः. एषः वर्णव्यत्ययः सन्धिकार्यम् इति उच्यते. सन्धिकार्यं त्रिविधं भवति, आदेशरूपकार्यम्, आगमरूपकार्यम्, लोपरूपकार्यम्. आदेशः नाम शत्रुवद् आदेशः. आगमः नाम मित्रवदागमः. लोपः नाम अदर्शनं लोपः. तत्र शारदा भगिनी किमपि पृच्छति, शुद्ध्युपास्यः अपि शुद्धं वा. कृपया तत्र स्पेल्लिङ्ग् न ज्ञायते अत्र आङ्ग्लभाषायां, तदग्रे वक्ष्यामि कति तत्र कति रूपाणि भवन्ति, कति उत्तराणि भवन्ति इति. तत् తృతీయ దకార సుధీతి అస్తి కిల తత్ అగ్రే ఉచ్యతే అగ్రే సైవ విషయ ఉచ్యతే ఇదానీం సర్వైః అవగతం ఇతి భాతి సంధి భేదాః అచ్ సంధి ప్రకృతి భావ సంధి హల్ సంధి విసర్గ సంధి స్వాది సంధి ఇదానీం అచ్ స్థానే అచ్ సంధి నామ స్వరస్య స్థానే ఆదేశ ఆగమ లోపాదయః అచ్ సంధి హల్ సంధి నామ వ్యంజనస్య స్థానే ఆదేశాదయః ఆదేశ ఆగమ లోపాదయః వ్యంజన సంధి తత్ర వ్యంజన నిమిత్త ఆగమ వ్యంజన సంధ్యాం ప్రాయః లోపః న భవతి అత్సంధ్యాం ఆదేశః లోపః భవతి పరంతు ఆగమః న భవతి విసర్గసంధ్యాం విసర్గసంధౌ లోపః అపి భవతి ఏవం విసర్గస్య స్థానే ఏవం అత్సంధి నామ అచ స్థానే సంహిత హల్సంధి నామ హలః స్థానే సంహిత భవతి విసర్గసంధి నామ విసర్గస్య స్థానే ఆదేశాదయః భవంతి ఇదం స్వాదిసంధి ఇతి పంచసంధి ప్రకరణమస్తి తద్విషయే అహం అనంతరం వక్ష్యామి యదా స్వాదిసంధి సూత్రాన్ని ఆగచ్చంతి తదా వక్ష్యామి లఘు సిద్ధాంత కౌముద్యాం తు పంచసంధి ప్రకరణం నాస్తి కేవలం అచ్సంధి హల్సంధి విసర్గసంధి ఇతి అస్తి అచ్సంధౌ ఏవ ప్రకృతిభావ సూత్రాణి అంతర్భూతాని సంతి ఏవం విసర్గసంధౌ ఏవ స్వాదిసంధి సూత్రాణి అంతర్భూతాని సంతి ఇదానీ ఇకో ఎణచి ఇది ప్రథమం ఎణ్సంధి విదాయకం సూత్రం తత్ర అస్తి అత్ర పదత్రయం విద్యతే ఇకః ఎణ్ అచీతి ఇకః షష్ట్యైకవచనం ఎణ్ ప్రథమైకవచనం అచీతి సప్తమీ ఏకవచనం సప్తమీ భక్తి ఏకవచనం ఇదానీ అత్ర కౌముద్యాం లఘు కౌముద్యాం ఇకస్థానే ఎన్ స్యాత్ అచి సంహితాయాం విషయే సుధి ఉపాస్యః ఇతి స్థితే ఇతి వృత్తిః దత్తమస్తి. వృత్తి విషయే వయం ఆగచ్చామః. ఇదానీం ఏతద్ విధి సూత్రం ఇతి వయం అస్మాభిః జ్ఞాయతే. యతో హి అత్ర ఎణ్ విధీయతే, అత్ర విధీయమానః ఎణ్ భవతి. అత్ర ఇక్ ఇతి షష్ట్యంతం పదమస్తి. అచ్ ఇతి అచ్ నామ అచి అచ్ ప్రత్యాహారః. తత్ర అచ్ ప్రత్యాహారే ఆ ఇ ఊరు లృ ఏవో ఐ ఔ ఇతి సంతి. తత్ర అచ్ ప్రత్యాహారే అకారస్య అష్టాదశ భేదాః, ఇకారస్య అష్టాదశ భేదాః, ఉకారస్య అష్టాదశ, ఋకారస్య అష్టాదశ, లుకారస్య ద్వాదశ భేదాః, ఏకారస్య ద్వాదశ, ఓకారస్య ద్వాదశ, ఈకారస్య ద్వాదశ, ఔకారస్య ద్వాదశ భేదాః స్వీక్రియంతే. ఏమేవ ఇకః అపి సవర్ణ భేదాః స్వీక్రియంతే. యణః ఇత్యత్ర విధీయమానః యణ్త్వాత్ అత్ర య యు వృ ల ఏతే చత్వారః వర్ణాః యత్ ప్రత్యాహారాంతర్భూతాః వర్ణాః ఏవ స్వీక్రియంతే. తద్ పూర్వస్యాం కక్షాయాం పాఠితం తద్ అనుదిత్ సవర్ణస్య చాప్రత్యయః ఇతి సూత్రస్య వ్యాఖ్యాన సమయే విధీయమానః నామ కిం అవిధీయమానః ఇతి పాఠితం. పునః వక్ష్యామి. యణ్ అత్ర యణ్ విధీయమానః అస్తి, అతః సవర్ణాన్ న గృహ్ణాతి ఇతి నియమః. యత్ర విధీయమానః ప్రత్యాహారః నాస్తి తదా సవర్ణాన్ గృహ్ణాతి. ఇక్ ఇతి ప్రత్యాహారేషు అంతర్భూతాః వర్ణాః, సవర్ణాన్ గృహ్ణాతి. ఏవం ఇదానీం ప్రశ్నః కిం ఆగచ్చతి. అత్ర వృత్యాం ఇకో ఎణచి ఇతి ఇకః స్థానే ఇతి ఉక్తం. కథం ఇకః స్థానే ఇతి ఆగతం? ఇకః ఇతి షష్ఠీ విభక్త్యాః అర్థః కః ఇతి ప్రశ్నః ఉదేతి. తదా ఉచ్యతే, ఇదానీ పాణినిః కిం కరోతి? పరిభాషా సూత్రాణాం ఆధారేణ యది సూత్రస్థిత పదాని सूत्रस्य पदानाम् अर्थः कथं करणीयः इति सः वदति। यदि षष्ठी विभक्ति अस्ति चेत् कथं अर्थः करणीयः, यदि सप्तमी विभक्तिः अस्ति चेत् सूत्रे तदा किं करणीयम्, एवं पञ्चमी अस्ति चेत् किं करणीयम्, एवं चतुर्थी अस्ति चेत् किं करणीयम्। एतत् सर्वं चतुर्थी नास्ति, पञ्चमी षष्ठी, षष्ठी अस्ति चेत् किं करणीयम् इत्यादि विषयकसूत्राणि परिभाषासूत्राणि इति उच्यन्ते। अनियमे नियमकारिणी परिभाषा इति उच्यते। अस्माभिः सूत्रं कतिविधम् इत्यत्र संज्ञा च परिभाषा च विधिर्नियमे एव च इति अस्माभिः अधीतम्। संज्ञासूत्राणाम् उदाहरणं वयं जानीमः। इदानीं तुल्यस्य प्रयत्नं सवर्णम् इति सवर्णसंज्ञा विधायकं सूत्रम्। एवं परिभाषासूत्राणाम् अस्माभिः ज्ञानं नास्ति एतावत्पर्यन्तम्। विधिसूत्राणाम् इको यणचि इति विधिसूत्रम् इति अस्माभिः इदानीं ज्ञातम्। एवं यतोहि यण् विधीयमानः अस्ति, विधीयमानः नाम यण्येव अत्र यण्येव विधीयते, विधिः नाम कार्यम्, तत्र यागयज्ञस्य विधिः इति उच्यते किल, तथा एव इदानीम् अत्रापि किं भवति इत्युक्ते इकः इति षष्ट्यन्तं पदम् अस्ति। इकः इति षष्ट्यन्तपदस्य कथम् अर्थः करणीयः, तदा उच्यते षष्ट्यन्तपदस्य अर्थकरणसमये षष्ठीस्थाने योग इति सूत्रम् उपयुज्य अर्थः करणीयः। कृपया सावधानेन पश्यन्तु, षष्ठीस्थाने योग इति सूत्रं लघुकौमुद्यां नास्ति, अत्र अस्माभिः स्वीकृतम्। षष्ठीस्थाने योग इति परिभाषासूत्रम्। परिभाषासूत्राणि विधि उपकारकाणि भवन्ति, विधिसूत्राणाम् उपकारं करोति। संज्ञासूत्रं परिभाषासूत्रं विधिसूत्राणाम् उपकारं करोति। विधिसूत्राणाम् अर्थकरणसमये संज्ञासूत्राणाम् परिभाषासूत्राणाम् उपयोगः क्रियते। इदानीम् इकः इको यणचि इत्यत्र इकः इति पदं षष्ट्यन्तं पदं विद्यते। यदि सूत्रे षष्ट्यन्तं पदं विद्यते तदा अस्माभिः किं करणीयम्, तदा अस्माभिः षष्ठीस्थाने योग इति सूत्रं द्रष्टव्यम्। षष्ठीस्थाने योग इति सूत्रं किं वदति इत्युक्ते अनिर्धारितसम्बन्धविशेषा षष्ठी स्थाने योग बोध्या इति षष्ठीस्थाने योग इत्यस्य सूत्रस्य सूत्रार्थः। इदानीं षष्ठी, षष्ठी इत्युक्ते षष्ठी विभक्तेः कः अर्थः इति वयं ज्ञास्यामः। षष्ठीभक्तेः पोसेसिव् केस्, जेनेटिव् केस् इति आङ्ग्लभाषायां वदन्ति। तत्र स्वस्वामिभावसम्बन्धः, जन्यजनकभावसम्बन्धः, इदानीं रामस्य पिता दशरथः, तत्र जन्यजनकभावसम्बन्धः अस्ति। रामस्य पिता दशरथः, इदानीं राज्ञः सेवकः इत्यत्र, राज्ञः सेवकः इत्यत्र स्वामीभृत्यसम्बन्धः अस्ति। इदानीं मम पुस्तकम् इत्यत्र स्वस्वामिभावसम्बन्धः अस्ति। मम पुस्तकं मम इत्यत्र षष्ठीभक्तिः अस्ति, स्वस्वामिभावसम्बन्धः अस्ति। एवम् एतादृश षष्ट्यर्थाः, एकशतं षष्ट्यर्थाः इति व्याकरणे महाभाष्ये उक्तिः अस्ति। सामान्यतः षष्ट्यर्थः सम्बन्धे उच्यते। इदानीम् अत्र इकः इति तत्र शब्दः इत्युक्ते इट् इस् अ वर्ड्, सो वाट् इस् द रिलेशन् दट् ए वर्ड् केन् हाव् वित् अनदर् वर्ड्। शब्दस्य शब्देन सह कः सम्बन्धः वक्तुं शक्यते इत्युक्ते त्रयः एव सम्बन्धाः, आन्तर्यं, सामीप्यं, स्थानम् इति। तत्र व्याकरणशास्त्रे, अस्माकं शास्त्रे षष्ट्याः स्थानरूपितसम्बन्धः स्वीकृतः। ஸ்தானம் நாம கிம், ஸ்தானம் ச பிரசங்க இத்தே அத்ர உச்சாரண பிரசங்க இத்யர்த்தஹ. இதானீம் இக இக இகோ எனசி இத்யத்ர இகஹ ஷஷ்டி விபக்தி அஸ்தி. இகஹ ஸ்தானே இத்யுக்தே இகஹ உச்சாரண பிரசங்கே யன் உச்சாரியதே. இதானீம் இகஸ்த இகோ எனசி இத்யத்ர இகஸ்தானே யன் ஸ்யாத் இத்யுக்தே. இதானீம் அஸ்மாபிஹி உக்தம் கிள ஆதேசஹ சத்ருவத் ஆதேசஹ இதி. இத்யுக்தே இகஹ யதா இக் பவதி இக் வர்ணஹ பவதி ததா யன் வர்ணஹ இக் உச்சாரணேவ சந்திஹி கிள உச்சாரண சமயே வர்ணானாம் அத்யந்தம் சாமீப்யம் சம்ஹிதா. அதஹ இக் உச்சாரண பிரசங்கே யன் உச்சாரியதே இதி சூத்ரார்த்த கரணியஹ. ஏவம் ஷஷ்ட்யந்தஸ்ய யதி அநிர்தாரித சம்பந்த விசேஷஹ அஸ்தி, யதி சம்பந்த விசேஷஹ க்வசித் அஸ்தி சேத் ததா ஏதத் சூத்ரம் ந ப்ரவர்த்ததே. யதி அநிர்தாரித சம்பந்த விசேஷஹ அஸ்தி சேத் ததா ஷஷ்டி விபக்தேஹ ஸ்தானே இதி அர்த்தக் கரணியஹ. இதானீம் இகஹ இதி அஸ்தி சேத் இக ஸ்தானே இதி வக்தவ்யம், ஏசஹ அஸ்தி சேத் ஏச ஸ்தானே இதி வக்தவ்யம். ஏதேவ ஷஷ்டி ஸ்தானே யோகா இதி பரிபாஷா சூத்ரம் வததி. இதானீம் அநிர்தாரித சம்பந்த விசேஷ யத்ர அன்யஹ கஷ்சன சம்பந்தஹ இகஹ வர்ட் கதம் ஷஷ்டி. மீனாட்சி பகினி பிரச்சதி இகஹ இதி ஹலந்த சப்தஹ இக் இகோ இகஹ இகம் இகோ இகஹ இக இக்பியாம் இக்பிஹி இகே இக்பியாம் இக்பஹ இகஹ இக்பியாம் இக்பஹ இகஹ இகோஹோ இகாம் இகஹ இதி ஷஷ்ட்யந்தம் பதம். ஏவம் அநிர்தாரித சம்பந்த விசேஷா விசேஷா யத்ர அன்யஹ கஷ்சன சம்பந்தஹ கதஞ்சித் நிர்தாரிதஹ ததா இயம் பரிபாஷா ந ப்ரவர்த்ததே. அநியமே நியம காரணி பரிபாஷா இதி உக்தி அஸ்தி. யத்ர ஷஷ்ட்யாஹ அர்த்தஹ ந நிஸ்திதஹ ததா ஏவ ஏஷா பரிபாஷா ப்ரவர்த்ததே. ஏவம் ஷஷ்டி விபக்தேஹ அர்த்தஹ அஸ்மாபிஹி கிம் கரணீயஹ ஸ்தானே இதி கரணீயோ பவதி. ஸ்தான ஷஷ்டி இதி உச்சதே வியாகரணே. ஏதாதிருஷ ஷஷ்டி விபக்தேஹ ஸ்தான ஷஷ்டி இதி உச்சதே வியாகரணே. ஏதாதிருஷ ஷஷ்டி விபக்தேஹ ஸ்தான ஷஷ்டி இதி உச்சதே. இதானீம் இகஹ இத்யத்ர இக ஸ்தானே இதி ஸ்வீகிருதஹ. ஏவம் அத்ர கிம் சம்பன்னம் இகோ எனசி இத்யத்ர இக ஸ்தானே இதி கதம் ஆகதம் இதி அஸ்மாபிஹி திருஷ்டம். இகஹ ஸ்தானே யன் ஸ்யாத் இக் நாம இகார உகார ரிகார லிகாரஹ. இதானீம் அஸ்மாபிஹி யன் பிரத்யாஹாரே யுவ் ஏதே வர்ணாஹ சங்கிரஹிதாஹ பவந்தி, அச்சிதி பிரத்யாஹாரே ஏதே வர்ணாஹ சங்கிரஹிதாஹ பவந்தி சம்ஹிதாயாம், சம்ஹிதா இதி அதிகாரஹ வர்த்ததே. இதானீம் அஸ்மாபிஹி ஷஷ்டாத்யாயஸ்ய பிரதம பாதே அஷ்டாத்யாயியாம் த்விசப்ததிதம சூத்திரம் அஸ்மாபிஹி ஸ்வீகர்த்தவ்யம் பவதி. கிருபையா ஸ்வீகிருத்ய பஷ்யது. சம்ஹிதாதிகாரஹ வித்யதே. சம்ஹிதாதிகாரஹ நாம அஸ்மின் அதிகாரே சதா யத்ர யதா யதா சூத்திரம் யாவத் பர்யந்தம் சாதிகாரஹ கச்சதி தாவத் பர்யந்தம் சம்ஹிதாயாம் 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 இத்யேவ யோஜனீயம் அஸ்மாபிஹி. சதா கிம் பவதி இகஹ ஸ்தானே சம்ஹிதாயாம் சத்யாம் இதி ஆகச்சதி சூத்ரார்த்தஹ. இகஹ ஸ்தானே யன் ஸ்யாத் கதா சம்ஹிதாயாம் சத்யாம், யதா சம்ஹிதா பவதி ததா இக ஸ்தானே யன் பவதி. ஹரி ஓம். ஸ்ருதே வா? சம்ஹிதாயாம் சத்யாம் இக ஸ்தானே யன் ஸ்யாத். கீதா பத்மநாபன் பகினி கிம் வததி, அத்ர எய்தர் ட்ரான்ஸ் லிட்ரேஷன் அவசியம் அத்வா சம்ஸ்கிருத டைப்பிங் பிரயோக ஃபெசிலிட்டி அவசியம். குத்ர மயா சம்யக் நாவ ந ஞாதம் குத்ர அவசியம். अस्तु अग्रे गच्छामः। भगिनी कृपया मेल प्रेषयतु, अहम् उत्तरं दास्यामि। इदानीं तात्पर्यमेवम् अस्ति, इकार उकार ऋकारस्य स्थाने असवर्णः स्वरवर्णः भवति चेत् तदा एतेषां स्थाने यण्वर्णाः आदेशाः भवन्ति। तत् पुनः पश्यामः कथम् इति। इदानीं इदानीम् एकः प्रश्नः उदेति, तदेकः स्लैड् मया टैप् कृतं, तत् प्रायः नागतम्। एकः प्रश्नः उदेति, अस्तु तद्विषये वदामि। इदानीं सुधी प्लस् उपास्यः इति स्थिते इति तत्र उदाहरणं दत्तं लघुकौमुद्यां। सुधी इत्यत्र सकारोत्तर उकारः अस्ति, धी इत्यत्र धकारोत्तर ईकारः अस्ति, उपास्यः इत्यत्र उकारः अस्ति। इदानीम् ईक्वर्णः नाम किम्? इ उ ऋ ल एते ईक्वर्णाः। इदानीम् ईक्वर्णत्रयमस्ति सुधी उपास्यः इति उदाहरणे। कृपया सावधानतया शृण्वन्तु। सुधी उपास्यः इत्यत्र इक्वर्णत्रयमस्ति, अत्र किम् उक्तं सूत्रे? इकः स्थाने यण् स्यात् अचि संहितायां विषये इति उक्तम्। इदानीम् इक् अस्ति, अच् अपि अस्ति, अच् अपि अस्ति, यण् भवितव्यं, सर्वत्र यण् भवितव्यम्। एवं सकारोत्तर उकारस्य सुधी प्लस् उपास्यः इत्यत्र सकारोत्तर उकारस्यापि यणादेशः भवितव्यः। एवं कुत्र यणादेशः करणीयः अस्मिन्, कुत्र कार्यं करणीयम्, कस्य स्थाने, इकः स्थाने इत्युक्ते कस्य इकः स्थाने? सुधी प्लस् उपास्यः इत्यत्र त्रयः इक्वर्णाः सन्ति, कस्य इकः स्थाने अस्माभिः करणीयम् इत्येव प्रश्नः। तदा उच्यते सूत्रम् एकमस्ति, तस्मिन् इति निर्दिष्टे पूर्वस्य इति एकं सूत्रं विद्यते, तत् अग्रिमसूत्रं लघुकौमुद्यां विद्यते। प्रथमाध्यायस्य प्रथमपादे एव विद्यते। परिभाषासूत्रमस्ति, चत्वारि पदानि सन्ति अस्मिन् सूत्रे, तस्मिन् इति निर्दिष्टे पूर्वस्य। तस्मिन् इत्यत्र सप्तम्यन्तस्य अनुकरणमस्ति। सप्तम्यन्तस्य अनुकरणं नाम अत्र शास्त्रे अष्टाध्याय्यां यत्र यत्र यस्मिन् यस्मिन् सूत्रे सप्तमी विभक्तिः आगच्छति तत्र इत्यर्थः। तस्मिन् इत्युक्ते समस्तशास्त्रे सप्तम्यन्तस्य अनुकरणम्। अष्टाध्याय्यां चतुस्सहस्रसूत्रेषु यत्र यत्र सप्तमीविभक्तिः आगच्छति तस्य सर्वस्य अनुकरणं तस्मिन्निति पदेन अत्र स्वीक्रियते। तदेव उच्यते सप्तमीनिर्देशेन, यत्र सप्तमीनिर्देशः अस्ति सप्तमीनिर्देशेन विधीयमानं कार्यम्, इदानीं सप्तमी निर्देशः तदा किं भवति सप्तमी निर्देशेन विधीयमानं कार्यं वर्णान्तरेण अव्यवहितस्य पूर्वस्य बोध्यं पूर्वस्य कार्यं भवति इति उच्यते इदानीं पूर्वस्य वा एकम् एतत् चित्रं पश्यामः इदानीम् इति प्लस् अपि इति उदाहरणं स्वीकुर्मः अत्रापि त्रयः इक्वर्णाः सन्ति इति प्लस् अपि त्रय इकारः अस्ति इकारः अस्ति इकारस्थाने यञ्च संहितायां विषये इति अत्र संहिता अस्ति अस्माभिः इकः स्थाने यणादेशः करणीयः इदानीं सर्वत्रापि यणादेशे कृते अनिष्टरूपसिद्धिः भवति तदा इदानीं तदा उच्यते त्रयः इक्वर्णाः अत्र सन्ति तस्मिन् इति निर्दिष्टे पूर्वस्य इति किम् इति सूत्रं किं वदति सप्तमी निर्देशेन विधीयमानं कार्यं वर्णान्तरेण अव्यवहितस्य पूर्वस्य बोध्यम् इको यणचि इति सूत्रमस्ति अचि इति सप्तमी विभक्तिः अस्ति सप्तमी विभक्तिनिर्देशः कृतः यदि यत्र सप्तमी अच् तत्र अचि इति सप्तमी निर्देशः कृतः सप्तमी निर्देशः यत्र क्रियते तत्र अव्यवहितस्य पूर्वस्यैव कार्यः करणीयः इदानीम् अत्रापि इति प्लस् अपि इत्यत्र प्रथम इकारे इकः अस्ति सः पूर्वं पूर्वे एव अस्ति पूर्वस्यैव कार्यं कर्तव्यम् इत्युक्ते अत्रापि कर्तुं शक्यमासीत् परन्तु व्यवहितः अस्ति इकार अकार अचः मध्ये तकारः इकारः अस्ति व्यवहित इक्वर्णः सः मध्ये वर्णस्य व्यवहितत्वात् तत्र यणादेशः अस्माभिः कर्तुं न शक्यते अत्र तु तृतीय इकारस्य तु इक्वर्णः अस्ति पूर्वः अस्ति अव्यवहितः अस्ति यतः इक्वर्णस्य पार्श्वे एव अकारः अस्ति एवं पार्श्वे एव अचः उपस्थितत्वात् अव्यवहित पूर्वत्वात् इकः अव्यहितपूर्वत्वात् इति प्लस् अपि इत्यत्र तकारोत्तर इकारस्यैव यणादेशः करणीयः एवमेव अत्रापि अन्तिम इकारस्यापि व्यवधानमस्ति अतः अस्माभिः नैव कर्तुं शक्यते एवं तस्मिन् इति निर्दिष्टे पूर्वस्य इति सूत्रं किं वदति इत्युक्ते सप्तमी निर्देशेन यत्र यत्र सूत्रे विधीयमानं कार्यम् अत्र सप्तमी निर्देशेन अचि इति सप्तमी निर्देशेन विधीयमानं यन् कार्यं वर्णान्तरेण अन्यत् वर्णेन अव्यवहितस्य व्यवधानरहितस्य पूर्वस्य कर्तव्यं भवति पूर्वस्य कार्यं कर्तव्यं भवति एवम् इति प्लस् अपि इत्यत्र तकारोत्तर इकारस्य स्थाने यकारादेश कार्यं कर्तव्यं किं कार्यं कर्तव्यं यणादेशः कर्तव्यः अतः इकारस्य तकारोत्तर इकारस्य स्थाने एव यकारः इति समागच्छति इदानीं सुधी उपास्यः इति उदाहरणं पश्यामः सुधी उपास्यः इत्यस्मिन् पदे इक् इति वर्णत्रयम् इक् वर्णत्रयमस्ति सकारोत्र उकारः धकारोत्र ईकारः उकारः एवं यणादेशः धकारोत्तर ईकारस्यैव भवति यतोहि इक्सम्बन्धिनः ईकारस्य अत्सम्बन्धिनः उकारस्य च मध्ये न कश्चन वर्णः अस्ति ईकार उकारयोः मध्ये किमपि वर्णः नास्ति परन्तु सकारोत्तर उकारयोः च मध्ये दकारः इत्यादि वर्णाः सन्ति अतः अव्यवहित पूर्वत्वं तु ईकारस्यैव धकारोत्तर ईकारस्यैव भवति अत एव धकारोत्तरवर्तिनः ईकारस्य स्थाने एव यणादेशः प्राप्नोति इदानीं इकः स्थाने यं स्यात् इति सूत्रार्थे वर्णिते इकः स्थाने इति कथम् आगतम् इत्युक्ते षष्ठी स्थाने योग इति सूत्रेण आगतम् षष्ठी स्थाने योग प्रियदर्शिनी भगिनी पुनः षष्ठी स्थाने योग सूत्रं विवृणोतु इति प्रार्थितवती षष्ठी स्थाने योग इति परिभाषा सूत्रमस्ति अत्र एतत् परिभाषा सूत्रं किं करोति विधिसूत्राणां कथम् अर्थं सम्पादनीयम् इति नियमम् अनियमे नियमकारिणी परिभाषा इति नियमं वदति पाणिनिः परिभाषासूत्रेण सूत्राणाम् अर्थकरणं कथं कर्तव्यम् इति सः वदति षष्ठीस्थाने योग इति परिभाषासूत्रं षष्ठी यत्र भवति तत्र उपकरोति षष्ट्याः बहवः अर्थाः सम्भवन्ति सम्बन्धः तेषु अर्थेषु सामीप्यं स्थानम् इत्यादि अर्थेषु स्थानम् इत्यपि एकः अर्थः अस्ति व्याकरणशास्त्रे स्थानम् इति अर्थं स्वीक्रियते स्थानं नाम प्रसङ्गः इति उच्चारणप्रसङ्गः इति अस्माभिः स्वीकर्तव्यं भवति यतोहि शब्दशास्त्रत्वात् इकः स्थाने यं स्यात् इत्यत्र इकः स्थाने इत्युक्ते उच्चारण इकः उच्चारणप्रसङ्गे यण् उच्चारणं कर्तव्यम् इति समागच्छति एवं षष्ठीस्थाने योग इत्यस्मात् इकः इति पदस्य इकस्थाने इति आगतम् एवमेव एचः इति यत्र कुत्रापि आगच्छति चेत् एचः स्थाने इति भवति परन्तु एकः एव नियमः अस्माभिः परिपालनीयः षष्ठीस्थाने योग इति सूत्रम् उपयोगं कर्तुम् किम् इत्युक्ते सम्बन्धविशेषः अन्यसम्बन्धविशेषः प्रतिपादितः न भवेत् तस्मिन् सूत्रे तदा एव एषा परिभाषा प्रवर्तते इदानीम् इको यणसि इत्यत्र एवम् इकस्थाने यण् स्यात् यण् स्यात् इत्युक्ते सुधी उपास्यः इत्यस्मिन् उदाहरणे त्रयः इकः सन्ति कुत्र यण् अस्माभिः यण् कार्यं कुत्र कर्तव्यम् इति प्रश्ने कृते तदा तस्मिन् इति निर्दिष्टे पूर्वस्य इति सूत्रम् उपकरोति एतत् सूत्रमपि परिभाषासूत्रं विद्यते सप्तमी निर्देशेन इति तस्मिन् इत्युक्ते तस्मिन् इति शब्दः समस्तशास्त्रे सप्तम्यन्तस्य अनुकरणम् इत्युक्ते शास्त्रे नाम सूत्रे पाणिनि अष्टाध्याय्यां यत्र यत्र सप्तमी विभक्तिः भवति तत्र तत्र तेषां सर्वेषां सूत्राणां तस्मिन् इति पदेन ग्रहणम् अत्र तस्मिन् इति सप्तम्यन्तस्य अनुकरणं तत् एवं तस्मिन् इति निर्दिष्टे यदा तस्मिन् इति पाणिनिना निर्देश क्रियते सप्तमी विभक्त्या यदा पाणिनिः निर्देशं करोति तदा पूर्वस्य कार्यं कर्तव्यम् सप्तमी निर्देशेन यत्र पाणिनिः निर्देशं करोति तदा पूर्वस्य कार्यं कर्तव्यम् इदानीम् इति प्लस् अपि इति उदाहरणं स्वीकुर्मः इदानीम् इति प्लस् अपि इत्यत्रापि त्रयः इकः सन्ति अतः अत्र अपि इत्यत्र पकारोत्तर इकारस्य परत्वमस्ति अतः तत्र कार्यं नैव सिध्यति इदानीं पूर्व अचः पूर्वम् अकारात् पूर्वं द्वौ इकौ स्तः एकः इकः इकः पूर्वः अस्ति परन्तु व्यवहितः अस्ति मध्ये अन्यः वर्णः अस्ति इदानीम् अत्र इति इत्यत्र तकारोत्तर इकारस्य विषये वयम् इकः अस्ति पूर्वः अस्ति अव्यवहितः अपि अस्ति इदानीं मध्ये किमपि वर्णः नास्ति इकार अकारयोः तदा किं भवति इकार तकारोत्तर इकारस्य स्थाने यकारः भवति एवमेव सुधी उपास्यः इत्यत्र धकारोत्तर ईकारस्यैव यणादेशः एतावत् प्राप्ते इदानीं पुनः एकः प्रश्नः आगच्छति யனஹ யனஹ பிராப்திஹி நாம யன் இத்யுக்தே யு வு ரு லு இதி சத்வாரஹ வர்ணாஹ சந்தி தடா அஸ்மாபிஹி ஈகாரஸ்ய ஸ்தானே யகாரஹ ஏவ கிமர்த்தம் வகாரஹ கிமர்த்தம் ந பவதி லகாரஹ கிமர்த்தம் ந பவதி ரேஃபஹ கிமர்த்தம் ந பவதி இதி பிரஷ்னே க்ருதே ஏதஸ்ய உத்தரம் அக்ரிம சூத்ரே வித்யதே ஸ்தானே அந்தரதமஹ இதி சூத்ரம் ஏதத் அக்ரிம கக்ஷாயாம் குர்மஹ சந்தேகாஹ யதி சந்தி சேத் இகோ எணசீதி சூத்ரம் பூர்ணதயா வியாக்யானம் வியாக்யானந்தரம் இத்யுக்தே கக்ஷாத்வயானந்தரம் பிராயஹ இகோ எணசீ சூத்ரம் சம்யக் அஸ்மாபிஹி அவகம்யதே தததனந்தரம் பிரஷ்னாஹ பிரஷ்டும் அர்ஹந்தி. இதானீம் அஸ்மின் பாடே யத் பாடிதஹ தஸ்ய விஷய பிரஷ்னாஹ அஸ்தி சேத் க்ருபயா பிரஷ்டும் சக்யதே. பார்வதி பகினி பிருஷ்டவதி ஹௌ அசவரணா இது பிருஷ்டவதி தது துல்யாஸ்ய பிரயத்னம் சவரணம் இது அஸ்தி அதஹ இகாரஸ்ய அகாரஸ்ய அசவரணத்துவம் அஸ்தி அகார தது சவர்ணத்துவம் கதா பிரதிபாத்யதே ஸ்தானம் ஆபியந்தர பிரயத்னஸ்ச யஸ்ய வர்ணஸ்ய ஏன வர்ணேன துல்லியம் சமானம் பவதி ததா ஏவ சவர்ணத்வம் சித்யதி. யதி ஸ்தானம் ஆபியந்தர பிரயத்னஹ ந சமானஹ ததா அசவர்ணஹ வர்ணஹ அசவர்ண வர்ணஹ வர்ணௌ த்வௌ பவதி பரஸ்பரம். கிமபி சந்தேக அஸ்தி வா? அஸ்து தர்ஹி மங்களாச்சரணம் கிருத்வா சமாபனம் குர்மஹ. தத்ர அசைன்மெண்ட் புனஹ ஸ்மாரயாமி, அசைன்மெண்ட் பிரேஷிதம், தத் கிருபயா கிருத்வா டைப் குர்வந்து நோ சேத் ஹஸ்தேன லிகந்து பிரேஷயந்து, தேன மஹா லாபஹ வித்யதே. பிரியதர்ஷினி பகினி பிருச்சதி அவ்யவஹித ஸ்தானே ஏவ கரணியம் வா அதவா அச்பூர்வம் கரணியம் வா? அவ்யவஹித ஸ்தானே ஏவ கரணியம் கதம் ஞாயதே இத்யுக்தே தஸ்மின் இதி நிர்திஷ்டே பூர்வஸ்ய இதி சூத்ரார்த்தஹ சப்தமீ நிர்தேசேன விதீயமானம் காரியம் வர்ணாந்தரேண அவ்யவஹிதஸ்ய பூர்வஸ்ய அவ்யவஹிதஸ்ய பூர்வஸ்ய இதி ஆகச்சதி. அதஹ அவ்யவஹிதஸ்யைவ கரணீயம் அவ்யவஹிதஸ்ய பூர்வஸ்யைவ கரணீயம். அஸ்து ராம் ராமணம். ஏனாட்சர சமாம்நாய மதிகம்ய மகேஸ்வராத் கிருஷ்ணம் வியாக்கரணம் ப்ரோக்தம் தஸ்மை பாணினியே நமஹ. ஏன தௌதாகிரப்பும் சாமி உடை சப்த வாரிவிஹி தமஸ்தாஜானுஜம் பின்னம் தஸ்மை பாணினியே நமஹ. வாக்கியகாரம் வரருச்சிம் பாஷ்யகாரம் பிரச்சந்தலிம் பாணினின் சூத்திரகாரம் ச நதோஸ்மி மித்ரயம்.